अथ द्वितीयोऽध्यायः संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विशीदतम् इदं वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वा कष्मलम् इदम् विषमे समुपस्थितम् अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन क्षुद्रम् हृदय दौर्बल्यम् त्यक्त्वोत्तिष्ठ परम् तप कथम् भीष्ममहम् सङ्ख्ये द्रोणम् च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजार्हौ अधिसूदन मपीह लोके हत्वार्थकामास्तु गुरुनिधैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् कतरन्नो गरीयो यद्वा जयेम यदि बालो जयेयु यानेव हत्वा न जिजीविषामः एव स्थिता प्रमुखे धार्तराष्ट्राः यच्छेयस्यान् निश्चितम् ब्रूहितम् मे शिष्यस्येकम् शाधि माम् त्वाम् प्रबन्धम् विप्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणम् इन्द्रियाणाम् अवाप्य भूमौ असपत्नम् वृद्धम् राज्यम् सुराणामपि चाधिपत्यम् ಸಂಜಯ ಉವಾಚ ಏವಮುಕ್ತ್ವಾ ಋಷೀಕೇಶಂ ಗುಡಾಕೇಶಃ ಪರಂತಪಾ ನಯೋತ್ಸ್ಯೇಯಿತಿ ಗೋವಿಂದಂ ಉಕ್ತ್ವಾ ತೂಷ್ಣೀಂ ಬಭೂವಃ ಪ್ರಹಸನ್ನಿವ ಭಾರತ ಸೇನಯೋರುಭಯೋರ್ಮಧ್ಯೆ ವಿಶೀರಂತಮಿದಂ ವಚಃ ಶೋಚಸ್ತ್ವಂ ಪ್ರಜ್ಞಾವಾದಾಂಶ್ಚ ಭಾಷಸೆ ಗತಾಸೂನ್ ಅಗತಾಸೂಂಶ್ಚ ನಾನು ಶೋಚಂತಿ ಪಂಡಿತಾಃ ಚೈವ ನ ಭವಿಷ್ಯಾಮಃ ಸರ್ವೇ ವಯಮತಃ ಪರಂ ಪುರುಷರ್ಷಭಾ సమదుఃఖ సుఖం ధీరం సోమృతత్వాయ కల్పతే. అంతవంత ఇమే దేహా నిత్యస్యోక్తః శరీరిణః అనాశినో తస్మాద్యుజ్యస్వ భారత. యయేనం వేత్తి హంతారం యశ్చైనం మన్యతే హతం ఉభౌతౌ న విజానీతో నాయం హంతి న హన్యతే.
జైనం క
यद्यपि तुम अर्हसी धर्म्याधि युद्धाक्षेयोन्यति क्षत्रियस्य न विद्यते। क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्। अथ चेत् त्वमिमम् धर्म्यम् न करिष्यसि ततस्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि। अकीर्तिम् चापि भूतानि कथयिष्यन्ति देव्यया संभावितस्य च अकीर्तिः मरणात् अकीर्त्यते। मंस्यन्ते त्वां महारथाः येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्। वदिष्यन्ति तवाहिताः न्यूदन्तस्तव सामर्थ्यम् ततो दुःखतरम् नु किम्। तस्मा उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः। सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि। येषा ते अभिहिता सांख्ये बुद्धिः योगे तु इमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यति।
ಮಾತೇ ಸಂ
सिद्ध्यो समो भूत्वा समत्वं योग उच्यते। बुद्धियोगात् धनञ्जया बुद्धौ शरणं अन्विच्छा कृपणाग फलगे तव दुष्कृते तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्। व्यतितरिष्यति तदा दन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च। अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशवा स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्। भगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञः तदोच्यते। Thank you. ಸಂಗೀತೇಶು ವಿಗತ ಸ್ಪೃಹ ವೀತರಾಗ ಭಯ ಕ್ರೋಧ ಸ್ಥಿತ ಜೀವಿ ಮುನಿಗುಚ್ಯತೆ ತತ್ರಾಪ್ಯ ಶುಭಾಶುಭಂ ನಾಭಿನಂದತಿ ನದ್ವೇಷ್ಟಿ ತಸ್ಯ ಪ್ರಜ್ಞಾ ಪ್ರತಿಷ್ಠಿತಾ ರಸವರ್ಜಂ ರಸೋಪ್ಯಸ್ಯ ಪರಂ ದೃಷ್ಟ್ವಾ ನಿವರ್ತತೆ रागद्वेष वियुक्तैस्तु विषयान् इन्द्रियैश्चरम् आत्मवश्यैः विधेयात्मा प्रसादम् अधिगच्छति। प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसोऽख्याशु बुद्धिः पर्यवतिष्ठते। युक्तस्य भावना न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम्। इन्द्रियाणां विचरतां यन्मनोनुविधीयते तदस्य भरति प्रज्ञा वायुर्नावमिवाम्भसि। जाग्रति भूतानि सारिश पठ्यतो मुने। आपूर्यमाणम् अचलप्रतिष्ठम् समुद्रमापः प्रविशन्ति यद्वत् तद्वत्कामाः यम् प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी। निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति। पार्था नैना प्राप्य विमुख्यति स्थित्वास्याम् अंतकालेपि ब्रह्म निर्वाणं पृच्छति।
गीतास्तुपनिषत्सु ब्रह्मविद्यायाः योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः।